धर्तादिवः पवते कृत्योरसो दक्षो देवानामनुमाद्योनिभिः अरिसृजानो अत्योरसत्त्वभिर्वृथापाजांसि गणते नदीष्वा सूरो न धत्त आयुधागमस्यो स्वा अशिषा संरथिरोगविष्टिषु इन्द्रस्य सुष्मभीरयन्नपस्युभिरिन्दर्यन्वानो अज्यते मनीषिभिः इन्द्रस्य सोमपवमानभूर्मिनादविश्यमानो जठरेष्वावीश प्रणः पिन्व विद्युदभ्रे वरोदसी हियानवाजाम् उपमासि सस्वतः विश्वस्य राजा पवते स्वर्दृशऋतस्य धीतिवृषिकालावीवसत् सूर्यस्यासीरेण भिद्यते पितामधीनाम समष्टकाव्यः ऋषेवयूथा परिगोचवर्षस्य पामुपस्थे वृषभक्कणि क्रदत् सरिन्द्राय पवते मत्सरिन्द्रभो यथा ज्येषामसमिधे तोदयः